आणि नंतर हे ब्रह्मणस्पती सूक्त
ओम सोमानं स्वर्णं गृणे ब्रह्मणस्पते रक्षिवन्तयौषिजः योरेवान्योऽमि वहाव सुवित्पुष्टिवर्धनः सनस्य रक्तु यस्तुरः मानशंसो अररुषो दूर्जः प्रणं मर्जस्य रक्षाणो ब्रह्मणस्पते सगा वीरो नरिष्यति यमिन्द्रो ब्रह्मणस्पती सोमो हि नोति मर्जम् त्वन्तम् ब्रह्मणस्पते सोम इन्द्रश्च मर्जम् दक्षिणा पात्वमसः उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वे महे उपभ्रयन्तु मरुतः सुदानव इन्द्र प्राशु भवासजा स्वामिद्विषादत्पुत्रमर्ज उपब्रूते धने हि ते सुवीर्यम् मरुता स्वश्व्यन्दति तयो वाचके प्रयतो ब्रह्मणस्पते प्रदेव्येतु सुन्द्रता अच्छा वीरम् नर्यम् पन्थिरारसम् देवायन्तुनः यो वागते ददाति सुनरम् वसु तदत्ते अश्वीति श्रवाः तस्मायिणाम् सुवीरामायोजामहे सुप्रतो श्रीमनेहसम् प्रनूनम् ब्रह्मणस्पतिर्मन्त्रम् वरत्योऽप्यम् यस्मिन्नेन्द्रो वरुणो मित्रो अर्येयमादेवा ओका सुचक्रिरे तमिद्वोचे मा विदधे शुशम्भुवम् मन्त्रम् देवा अनेहसम् इमाम् च वाचम् प्रत्यहरयोता नरो विश्वे त्वामावो अश्नवत को देवयन्तमश्रवज्जनम् को वृत्तपरिषम् प्रप्रदाश्वान्तस्यान्तर्वयन्दधे उपक्षत्रम् वृञ्चितहम् विराज भये चित् सुक्षितिम् दोधे नास्य वर्तानत ऋतमोहाधनेनार्भे अस्ति वज्रिणाः गणानाम् त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्ववत्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः श्रीदशादनम् देवाश्चित्ते असुरय प्रजे तसो बृहस्पते यज्ञियम् भागमानजो उषा इव सूर्यो ज्योतिषामहो विश्वे सामिज्जनिता ब्रह्मणामसि आविवाद्या परिरापत्तमा श्रितज्योतिष्मन्धमृतमृतस्योतिष्ठति बृहस्पते भीममामित्रदम्भनम् रक्षोणम् गोत्रभिदम् स्वर्विदम् सुनीतिभिरङ्गयधित्राय सेजनय्यस्त्वभ्यन्दाशान्वतमहो अश्नवत ब्रह्मद्विषस्तपानो मन्युमीरति बृहस्पते मयि तत्ते महित्वनम् न तमहो न दूरितम् कुतश्च न दारातयस्तिर्नद्वाया विनाः विश्वा इवस्माद्वरसो विव दशेयम् सु गोपारक्षोति ब्रह्मणस्पते त्वन्नो गोपापति कृद्वैलक्षणस्तव व्रताय मतिभिरजरामहे बृहस्पते यो नो अभिवरो दले स्वातम् मरम् मर्दुच्च नारस्वती उत वा यो नो मर्जयादन कसोराति वा मर्दस्तानुगोलकाः बृहस्पते अपदम् वर्तयापदस्तु गन्नो अस्यै देववीतये कृते त्रातारम् त्वा तनूनाम् हवामहे वत्परतरति वक्तारो वस्मयुम् बृहस्पते देवनिदो निबर्हय माधुरेव उत्तरम् सुनमुन्नाशम् त्वया वयम् सुहृदा ब्रह्मणस्पते स्वार्हावतु मनुष्या दधीमहि यानो दूरे तळितो या अरातयो विसन्ति जम्मयाता अनाप्नसा त्वया वयमुत्तमन्ये महे वयो बृहस्पते पप्रेणा सस्मीनायुजा मानो दुःशंसो अभिधुरे सदा प्रसुशंसा मतिभिस्तारिकीमये अनानुदो वृषभो जग्मीराहवन्निष्टप्ता शत्रुमृतानुसाधये असि सत्य अरुणया ब्रह्मणस्पत उग्रस्य चिद्धमितावि यो हर्षिणाः अरेवेन मनसा योरि षण्णति सा मुग्रो मन्यमानो जिहांसति बृहस्पते मा प्रणक्षसि यो वदो निकरम् ममन्धुरेवस्य जरदातः भरेषु आव्यो नमासो पतद्यो गन्ता वाजे सुतनीतादनन्दनम् विश्वायुधर्यो विजेप्सुवो मृदो बृहस्पतिर्विभवरहारथामिव ते ज्येष्ठया तपनीरक्षतस्तपये त्वा निजे दधिरे दृष्टवीर्यम् आविष्टत्र स्वयदत्तोक्त्याम् बृहस्पते विपरिरापो अर्घय बृहस्पते अतियधर्यो अर्हाद्युमद्विभाजे क्रतो मज्जनेषु यद्धीरयच्छव सहृत प्रजा तदस्मा स्वद्रवीणे चित्रम् मानस्तेनेभ्यो ये अभिबृहस्पदे नीरामिणो ऋपवोन्नेषु जागृधु आ देवानामोह देविव्रयो हृदि बृहस्पतेन परस्वाम्नो विदो विश्वेभ्यो हितुका भुवने बृहस्पतिष्टा जनत्साम्नस्ताम्न कवि सवृणतिर्णया ब्रह्मणस्पतिर्द्रुहो हन्तामहृतस्य धर्तरि तव श्रिये व्यजित पर्वतो गवा गोत्रमुदसृजो युरन्द्रः इन्द्रेण युरा तमसा परिवृतम् बृहस्पते निरपामौब्जो अर्णवम् ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधितमयम् जिन्वा विश्वम् तद्भद्रम् यदवन् देवा बृहद्वा विदधे सुवीराः से मामाविद्ये प्रभृति य ईशीषे याविधे मनवो या महागिरा यथा नो मे भवान् तवोते सखा तव बृहस्पते शीर्षदस्सो ततो मयम् यो नन्त्वान्यनमन्योजसोता धर्धर्मन्युनाशम्भोराणि प्राच्या वयदच्युता ब्रह्मणस्पतिराचाविषद्वसुमन्थम् विपर्वोतम् तद्देवाना देवत मायकर्त्वमश्रत्नम् दृढाभ्रदन्तवीरिता उद्गा आजरवेन ब्रह्मणावलमगो हतमो व्यचक्षयत् स्वाहा अस्माश्चमवतम् ब्रह्मणस्पतिर्मधुधारमभिरमोदसातृणत तमेव विश्वे अभिरे स्वर्षो बहुसाकम् शिशुजुत्तमधृणम् धनाता काचिर्भुवना भवेत् त्वामाद्भिशरद्भिर्गुरोरन्दवः अयोतन्ता चरतो अन्यतम् यद्याचकार वयुना ब्रह्मणस्पति अभिलक्षन्तो अभियेतमा न शर्निलिम्बणीनाम् परमम् वाहितम् विद्वान् स प्रतिचक्ष्यामृत पुनर्यत उवायन्तदुदीरविषम् हृतावान प्रतिचक्ष्यामृता पुनरातस्तु कवयो महत्वथा ते बाहुभ्याम् समितमग्निमश्वानि न केशो अत्यरणो चौहृतम् हृतज्ञेन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टे प्रददश्नोति धन्वो न तस्य साभिर्षभोराभिरस्य चिन्तक्षसो दृशये कर्णयो नयः ससन्नयः सविनयः पुरोहितः सदुष्टूतस्य युधि ब्रह्मणस्पति क्ष्मो यद्वा जम्बरते मकीडनायत्सु यस्तकृतप्यदुर्वृथा विभो प्रभु प्रथमम् मे अनावतो बृहस्पते सुविदत्राणि राध्या विमासातानि वेण्यस्य वाजिनो येन जना उभये भुञ्जते विशाः यो वरे वृजने विश्वता विभुर्महामूरण्वश्यवता भवक्षीः तदेवो देवान् प्रदीप प्रदे पृथु विश्वे सुताभोर्ब्रह्मणस्पतिः विश्वम् सत्यम् भगवानायुवापश्चन प्रलीनम् च व्रतम् वाम् अच्छेन्द्रा ब्रह्मणस्पति हविर्नो नयुजेव वाजिनायुगातम् उदाशिष्ठा अनुसृणवन्ति वह्नाय सरेयो विप्रो भरते मतीगणा वीरुद्वेषा अनुवश हृणमादयित्सवारीभिरे ब्रह्मणस्पति ब्रह्मणस्पतेर्भवद्यथा वशम् सत्यो मन्युर्महि कर्म करिष्यतः योगा उलाजत्सति वेविता भजन्मही वारिचेश्वसादरत्प्रधव ब्रह्मणस्पते स्वयमस्य विश्वः रायस्यामरत्यो वयस्वता वीरेषु वीरामुपवृन्दिनस्त्वय्यदीशानो ब्रह्मणावेशिमे हवम् ब्रह्मणस्पते त्वमस्य यन्दासु कस्य बोधितनोऽयञ्च जिन्व विश्वन्त भद्रं यजवन् देवा बृहद्वदेव विरथे सुवीराः इन्द्रानो अग्निं वनवद्वनुष्यतः कृतब्रह्मशोषुवद्रातः यैव जातेन जातमतिः प्रसंहृते यञ्जयुजम् कृते ब्रह्मणस्पतिः वीरेभिर्वीरान् वनवद्वनुष्यतो गोभिर्कैर्मप्रधद्बोधोदित्मना पञ्चदस्य तनयञ्च वर्धते यञ्जयुजम् कृते ब्रह्मणस्पतिः सिन्धुर्नक्षोदशिनी वा मृगायतो वृषे भवधीरक्षो जोता अग्नेरिव प्रसीतिर्नाह वर्तवेयञ्जयुजम् कृते ब्रह्मणस्पतिः तस्मार्षन्ति दिव्याश्च तस्य तद्भवे प्रथमो गोषु गच्छति अनिवृष्टदविषर्हन्त्यो जथायञ्जयुजम् कृते ब्रह्मणस्पतिः तस्मा इति विश्वे दुनयन्त सिन्धवो छिदुरा शर्म गजिरे पुरूणि देवानाम् सुम्ने सुभगः स एयञ्जयुजम् कृणुते ब्रह्मणस्पतिः ऋषुरिच्छंसो वनवद्वनुष्यतो देवयञ्जते वयन्तमाभ्यसत सुप्रावीरिद्वनवत्पृच्छुदुष्टरञ्जद्वेदयज्ञो विभजाति भोजनम् यजस्व वीर प्रवीः मनायतो भद्रम् मनः कृणुष्वृत्रचूर्ये हविष्णुष्व सुभगो यथा चाति ब्रह्मणस्पतेरव आगृणीमहे सैजनेन सविशास जन्मानासपुत्रैर्वाजम् भरति जनान्वीः देवानाय पितरमाभिवादते श्रद्धामनाहविषा ब्रह्मणस्पतिम् यो अस्मै हव्यैर्घृतवद्भिरविधत्प्रतम् प्राचादयते ब्रह्मणस्पतिः उरुष्यति मम होसो रक्षोतीदस्मा उरुदक्रिरद्भूतः समुज्येष्ठन्नमसा हविरवेत्सुषेवम् ब्रह्मणस्पतिम् गृणीषे इन्द्रां श्लोको महिदैव्यश्रुरत्तुयो ब्रह्मणो देवकृतस्य राजा इयम् वाम् ब्रह्मणस्पते सुहृद्ब्रह्मेन्द्राय वज्रणे अकारि अवेष्टन्धियो जिघृतम् पुरन्धि जजस्तमर्यो वनुषामरालि तत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यऋषि अरायम् ब्रह्मणस्पतेति न शृङ्गो दृशन्निः अधो यद्वारो प्लवते सिंहो पारे अपूरुषम् तदारभस्वदुर्हणो तेन गच्छ परस्परम् अग्निर्येण विराजति सूर्यो येन विराजति विराज्येन विराजति तेनात्मान् ब्रह्मणस्पते विराजसं गुरुः